अथातो दीर्घजीवितायं ध्यायं व्यास्यामः यदि हस्माः भगवानात्रेयः दीर्घं जीवन्तमिक्षाम्बर भरद्वाजमुपागमात् इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम् ब्रह्मणा हि यथा प्रोक्ता मायुर्वेदं प्रजापति जग्राहनिखिले नादमश्विनोतु पुनस्ततः अश्विन्यां भगवान् चक्रा प्रतिवेदेह केवलम् ऋषि प्रोक्तो भरद्वाजस्तस्मात् चक्रमुपागमात् विघ्रमूता यदा रोगा प्रादुर्भूता शरीरिणाम् तपोपवासाध्ययनं ब्रह्मचर्यव्रतायुषाम् तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः समेता पुण्यकर्माणः पार्श्वे हिमवतः शुभे अङ्गिराजमदग्निश्च वसिष्ठा कश्यपो भृगुः आत्रेयो गौतमः सांख्यः पुलस्त्यो नारदोषितः अगस्त्यो वामदेवश्च मार्कण्डेयाश्वरायनौ पारिक्षिर्भिक्षुरात्रेयो भरद्वाजा कपिञ्जलः विश्वामित्रासरथ्यौ च भार्गवश्च वनोभिरेत् गार्ग्यशाण्डिल्यकौण्डिल्यौ मार्षिदेवलगालभौ शाकृत्यो वैजवापिश्च कुशिको बाधरायणः यस्य द्वादशसहस्री हृदितिष्ठति संहिता सोऽर्थज्ञाश्च विचारज्ञश्चिकित्साकुशलश्च सः रोगांस्तेषां चिकित्सां च स किमर्थं न बुध्यते चिकित्सावन्निवेशस्य सुस्थातुरहितं प्रति यदि हास्ति तदन्यत्र यन्नेहास्ति न तत्त्वचेत् अग्निवेशकृते तन्त्रे चरकप्रति संस्कृते